गणानां गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिदेवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्या यातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरापापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्तेऽभिवर्षस्तवे शिवाम् गिरित्रताम् कुरु वाहिगुम् श्रीपुरुषम् जगत् शिवेनवचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अद्य वोचदति वक्ता प्रथमो दैव्योऽभिषक् अहीजुश्च सर्वाञ्जम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये श्रीमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुलहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृळयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रवञ्च धन्वनस्वमुभयोराग्नियोर्ज्याम् यास्य देहस्त इषवः पराता भगवो वप अवतत्य धनुस्वगुम् सहस्राक्षशतेषु ते निशील्य शल्यानामुदा शिवो न सुमना भव विज्यम् धनुः कपद्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशवाहुलस्य निषङ्गतिः याते हेतिर्मीदुष्टवहस्ते बभूवते धनुः तया स्वान्विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय दृष्टवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अतो य इषुरिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिन् जरायत्वे श्रीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्याधिनेन्दानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय ददाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्मृतायौषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्नीनाम् पतये नमो नम कृष्णभीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निर्व्याधिन आव्याधिनीनाम् पतये नमो नम ककुभाय निषङ्गिणेस्तेनाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रीकाव्यभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो दिवद्भ्यो नक्तञ्चरभ्य प्रकृतानाम् पतये नमो नम उष्णीशिरे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मध्यो धन्वारेभ्यश्च भो नमो नम आधन्वारेभ्य प्रतिदधानेभ्यश्च भो नमो नम आयच्छभ्यो विसृजभ्यश्च भो नमो नमोऽस्यभ्यो विद्यभ्यश्च भो नमो नम आशीनेभ्यश्च यानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च भो नमो नम सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च भो नमः नमः व्याधिनीभ्यो विविद्यन्तेभ्यश्च भो नमो नम उगणाभ्यत्रिगुंहतेभ्यश्च भो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च भो नमो नमो रतेभ्यो रतेभ्यश्च भो नमो नमो रतेभ्यो रतपतिभ्यश्च भो नमो नमः सेनाभ्यः सेनानिभ्यश्च भो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च भो नमो नमस्तक्षभ्यो रथकारेभ्यश्च भो नमो नमः कुलारेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयुभ्यश्वरेभ्यश्च भो नमो नमः स्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीरुष्टवाय केशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम शीघ्र्याय च शेभ्याय च नम ऊर्ध्याय च वस्वन्याय च नम श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धेयाय च नम सोऽज्ञाय च प्रतिसर्ज्ञाय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरताय च नम शूराय च वृन्दते च नमो वर्मिणे च वरूतिने च नमो भिल्मिणे च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो विष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नम तीक्ष्णेशवेशायुधिने च नम स्वायुधाय च सुधन्वने च नम श्रुत्याय च पत्याय च नम कात्याय च नीत्याय च नम सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नम कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नम इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्ने वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः कीर्त्याय च कुल्याय च नमः पार्ग्याय च भार्ग्याय च नमः प्रतरणाय चोत्तरणाय च नमः आदाद्याय च लाद्याय च नमः षष्ट्याय च पेन्याय च नमः सिकत्याय च प्रभाक्याय च नम इन्द्राय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्ध्याय च सूर्म्याय च नमः పళ్యాయ చ పర్ణశగ్యాయ చ నమో పగురమాణాయ చ విగ్గతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగు హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రావే అంధతస్పతే దరిద్రన్నీలలోహితా పశూనాం పాభేర్మారోహోయేషాం యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయా నో మృణజీవసే ఇమాగుం రుద్రాయ తమసే కపద్మినే క్షయద్వేయాయ ప్రవదావహే వతిం యతానశ్వమతద్విపదే చతుష్పదే విశ్వం పుష్టంగామే అస్మిన్నరాదునం మృణానో రుద్రోతనో మయస్కృతి క్షయద్వేయాయ నమసా విదేమతే యచ్చం చయోశ్చమనురాయజే పితా తదశ్యామ తవ రుద్ర ప్రణీతౌ మానో మాంతముతమానో అద్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామాన సర్వో రుద్రలీలిషః మానస్సోకేతన ఏ మాన ఆయుషి వాధో గోషు వాధు అశ్వేషు లీలిషః వీరాన్మానో రుద్రభావితో వదేర్హవిష్మంతో నవసా విదేవతే ఆరాతే గోగ్ర ఉత పోరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తో రక్షాచరో అదిత దేవ బ్రూయదాచన శర్మయక్షద్విబర్హా సుహిశ్రుతం గర్త సదయ్యువానం నిగన్న భీమముపహత్తుముగ్రం నృడాచరిత్రే రుద్రస్తవాను అన్యంతే ఆస్మన్నివపంతు సేనా పరిణో రుద్రస్య హేతుర్విణక్తు పరిశ్లేషస్య దుర్మతిరగాయో అవస్థిరా మగవద్భ్యస్తనుష్వమీరుకాయ తనయాయ మృడయా మీరుష్టమశివతమ శివో న సుమనా భవ పరమే వృక్ష ఆయుధన్నిదాయ కృత్రిం వసాన ఆచర పినాకం బిభ్రదాగహి విగిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాది సహస్రదా బాహువోత్సవ హేతయః తాదామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాది సహస్రశో యే రుద్రా అధిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే అస్మిన్ మహత్యన్నవేంతరిక్షే భవ అధి నీలగ్రీవాశ్రీకంఠా శర్వా అధః క్షవాజరాః నీలగ్రీవాశ్రీకంఠాదివగుం రుద్రా ఉపశ్రితాః ఏ వృక్షేషు తస్తింజరా నీలగ్రీవా విలోహితాః ఏ భూతానామలిపతయో విశికాశక్కపర్దినః ఏ అన్యేషు వివిద్యంతి పాత్రేషు విపతోచనాన్ ఏ వదాంపతిరక్షయ ఐలవృదాయవ్యుదః ఏ త్రీతాని ప్రచరంతి శిఖావంతో నిషంగిణః య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుంసహస్రయోజనే వధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివ్యేషామన్నం వాతో వర్షమిష వస్తేభ్యో दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोतिचेर्दशोत्तास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यच्च नो द्वेषितम् भोजम् भे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयवामृतात् यो रुद्रो अग्नयो अप्सु य ओषधीषु यो रुद्रो विश्व पुवनाधिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मज्ञाय हन्तवे तान्यज्ञस्य पायया सर्वानवयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानाम् रन्तिरतिरुद्रो मा विशान्तकः तेनानेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु यस्विषस्वदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वाहेतौ मनसाय रुद्रम् नमो भृद्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजोयगु शिवाभिवर्षनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे कृषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे దీర్ఘాయుత్వం చ మేన మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే మూర్చ మే సోనృత చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్భిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మాఔద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుజ మే ప్రభుజ మే బహుజ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మే నం చ మే క్షుచ్చ మే వ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అశ్మా చ మే మృత్తికా చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే విరుధశ్చ మఔషధయశ్చ మే పృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మేమశ్చ మఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మఇంద్రశ్చ మే సోమశ్చ మఇంద్రశ్చ మే సవితా చ మఇంద్రశ్చ మే సరస్వతి చ మఇంద్రశ్చ మే పూషా చ మఇంద్రశ్చ మే బృహస్పతిశ్చ మఇంద్రశ్చ మే మిత్రశ్చ మఇంద్రశ్చ మే వరుణశ్చ మఇంద్రశ్చ మే త్వష్టా చ మఇంద్రశ్చ మే ధాతా చ మఇంద్రశ్చ మే విష్ణుశ్చ మఇంద్రశ్చ మే శ్వినౌ చ మఇంద్రశ్చ మే మరుతశ్చ మఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మఇంద్రశ్చ మేంతరిక్షం చ మఇంద్రశ్చ మే ద్యౌశ్చ మఇంద్రశ్చ మే దిశశ్చ మఇంద్రశ్చ మే మూర్ధా చ మఇంద్రశ్చ మే ప్రజాపతిశ్చ మఇంద్రశ్చ మే ఆగుంశుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మే ధృపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రిః చ మ ఆగ్రగణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే దిగ్గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణ్యాశ్చ మే శ్రుతశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే ఋషవణే చ మే
द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छमाधवनीयश्च आग्नेयं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे द्यौश्च मे चक्वरि रङ्गुलयो दिशश्च मे यज्ञेन कल्पन् ताम्रक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाक्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्ठवाच्च मे पष्ठौहि च म उक्षा च मे वशा च मर्षभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता दुःश्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे अष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाजश्च प्रथवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इदा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानि सगुंसिषद्विश्वे देवासोक्तवाच पृथिविमातर्मा माहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् वा देव अवन्तु शोभायै पितरोऽनुमदन्तु ओ शान्ति शान्ति शान्तिः ॐ तच्छञ्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శంచతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీర్షా పురుషః సహస్రాక్ష సహస్రపాద్ సభూమిం విశ్వతో భృత్వా అత్యతిష్ఠత్ దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతో జ్యాయాగుస్య పురుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వ ఉదయిత్ పురుషః పాదోస్యేహ భవాత్ పునః తతో విశ్వం వ్యక్రామత్ శాసనానశనే అభి తస్మాద్ విరాడ జాయతాం విరాజో అధిపురుషః స జాతో అత్యరిచ్యత పశ్చాద్ భూమిమథో పురః యత్ పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్యాసీదాజ్యం గ్రీష్మ ఇద్మ శరద్ధవిః సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిధ కృతాః దేవా యద్యజ్ఞం తన్వానాః అవద్నన్ పురుషం పశుం తయ్యజ్ఞం బర్హిషి ప్రోక్షన్ పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యా ఋషయశ్చ యే తస్మాద్ యజ్ఞాత్ సర్వహుతః సంభృతం పృషదాజ్యం పశుగుస్తాగుశ్చక్రే వాయవ్యాన్ ఆరణ్యాన్ గ్రామ్యాశ్చ యే తస్మాద్ యజ్ఞాత్ సర్వహుతః ఋచ సామాని జగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకేచో భయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాద్ జాత అజావయః యత్ పురుషం వ్యదధుః కతిధా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహూ కావూరూపాదా ఉచ్యేతే బ్రాహ్మణోస్య ముఖమాసీత్ బాహూరాజన్య కృతః ఊరూ తదస్య యద్వైష్యః పద్భ్యాగుం శూద్రో అజాయత చంద్రమామనసో జాతః చక్షో సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యా ఆసీదంతరిక్షం శీష్ణోద్యో సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాస్తే ధాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రదిశశ్చ తస్రః తమేవం విద్వానమృత ఇహ భవతి नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यातपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरारुणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शन् चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ
अत्रेणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्नर्मणा हतः कृमीनागुम् राजा अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्म्रसे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रः शं वरुणः शन्नो भवत्पर्यवा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ
Shanti, Shanti, Shanti. Shikshavyakhyasyamah Varnasvarah Matravalam Savasantanah Ityuktakshikshadhyayah Sahanau yashah Sahanau brahma varchasam Atatasvagumhitaya upanishadam vyakhyasyamah Panchasvadhikaraneshu Adhilokamadhijyautishamadhividyamadhiprajamadhyatmam Tamahasagumhita ityachakshate Atadhilokam prithivipurvarupam Dyauruttararupam Akashasandhi Vayusandhanam Ityadhilokam Adhadhijyautisham Agnipurvarupam Adityauttararupam Apasandhi Vaidyutasandhanam Ityadhijyautisham Adhadhividyam Ācāryapūrvarūpam Antevāsyuttararūpam Vidyāsandhihi Pravacanagumsandhānam Ityadhividyam Adhādhiprajam Mātāpūrvarūpam Pitottararūpam Prajāsandhihi Prajananagumsandhānam Ityadhiprajam adhadhyatmam adharahanupurvarupam uttarahanuruttararupam vasandhihi jihvasandhanam ityadhyatmam iti mahasagumhitah Yareva meta mahasagumhita vyakhyata veda Sandhiyate prajaya pashubhihi Brahma vachasena nadhyena suvargena lokena Yaschandrasam rishabho vishvarupaha Chandobhyo jamruta samvabhuva Samindro medhaya sprunotu amritasya devadharano bhuyasam shariram me vicharshanam jihva me madhumattama karna abhyam bhuri vishruvam brahmana koshosi medhaya pihitaha shrutam me gopaya Avahanti vitanvana kurvana jilamatmanah Vasagum simamagavascha Annapane jasarvada Tato me shriyavavah Lomasham vashubhissahasvaha Amayanto brahmacharinasvaha Vivayanto brahmacharinasvaha Pramayanto brahmacharinasvaha Dramayanto brahmacharinasvaha Shamayanto brahmacharinasvaha Yashojanesa nisvaha Shreyan vasya sosa nisvaha Samtabhaga pravisha nisvaha Samabhaga pravisha svaha Tasmin sahasra shakhe Nibhagaham tvai vraje svaha Yadha papravatayante Yadha masa aharjaram Evam maam brahmacharinah Dhatarayantu sarvatasvaha
प्रतिवेशो त्रिप्रमाभाहि प्रमापद्यस्वा भूर्भुवः सुवरिति वा एतास्तिस्रोव्याहृदयः तासामहस्मैताम् चतुर्थे माहाचमस्य प्रवेदयते महयते तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंसि महीयन्ते भूरिति वा रुचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एता चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेद स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमावहन्ति स य एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्यो पृथिव्यन्तरिक्षम् द्योर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमाणक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्पक् चर्ममागुंसग्रस्नावास्थिमज्जा एतदधिविदाय ऋषिरवोचत् पाञ्चम् वा इदगुम् सर्वम् पाण्डेनैव पाण्डग्स्पृणोतीति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्म वा अभ्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंसोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्युः प्रतिशरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमस्य स्वाध्याय प्रवचने च शमस्य स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यपौरुषिष्टिः स्वाध्याय प्रवचने एवेति नागो मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिः पृष्ठम् गिरेरिव ऊर्ध्वपवित्रो आदिनीव स्वमृतमस्मि द्रविणगुंसवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोचाचार्यो अन्तेवासिनमनुशास्ते सत्यम् वरा धर्मम् चरा स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्रे सत्यान प्रमदितव्यम् धर्मान प्रमदितव्यम् कुशलान प्रमदितव्यम् भूत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यानि अनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकम् सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये के चास्मच्चेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् श्रिया देयम् भिया देयम् संविदा देयम् अदयदिते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणाः संवर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अनाभ्याख्यादेषु ये तत्र ब्राह्मणाः संवर्षिणः युक्ताः युक्ताः अलोक्षा धर्मकामा स्युः यदा ते तेषु वर्तेरन् तथा तेषु वर्तेताः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहेषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः